भवसं भवभीति भेदनं सुखसं वत्करुणानिकेतनं प्रतदानतपः क्रियाफलं सहजानन्दगुरुं भजे सदा करुणामयचारुलोचनं शरणायात जनार्तिमोचनं पतितो धरणाय तत्परं सहजानन्दगुरुं भजे सदा निजतत्त्वपथावबोधनं जनतायाः स्वत एव दुर्गमम् इति चिन्त्य गृहीत विग्रहं सहजानन्दगुरुं भजे सदा विधिशम्भुमुखैरनिग्रहं भवपातोधिपरिभ्रमाकुलम् अपि धार्य मनो नरप्रभं सहजानन्दगुरुं भजे सदा निजपादपयोजकीर्तनं सततं स्याद्भवजीवगोचरम् इति यः कुरुते क्रतोत्सवम् सहजानन्दगुरुं भजे सदा शरणागतपापपर्वतं गणयित्वा न तदीयसद्गुणम् अणुमप्यतुलं हि मन्यते सहजानन्दगुरुं भजे सदा भववारिधिमोक्षसाधनं गुरुराजप्रकटस्वसङ्गमं प्रकटीकृतवान् कृपावशः सहजानन्दगुरुं भजे सदा भगवन् कृपया त्वया कृतम् जनतायामुपकारमीदृशं क्षमते प्रतिकर्तुमत्र कः कुरुते दीनजनस्ततोऽञ्जलिम्।